This is the Garbharaksha mantra and easy delivery mantra. Just you can listen to it if you cannot chant. Even if you chant, it is good. So I will chant the mantra 8 times. Okay? You can listen to it also. ॐ हिमवत्युत्तरे पार्श्वे सुरतानामयक्षिणी तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत्. ॐ हिमवत्युत्तरे पार्श्वे सुरतानामयक्षिणी तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत्. ॐ हिमवत्युत्तरे पार्श्वे सुरतानामयक्षिणी तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत्. ॐ हिमवत्युत्तरे पार्श्वे सुरतानामयक्षिणी तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत्. ॐ हिमवत्युत्तरे पार्श्वे सुरतानामयक्षिणी तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत्. ॐ हिमवत्युत्तरे पार्श्वे सुरतानामयक्षिणी तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत्. ॐ हिमवत्युत्तरे पार्श्वे सुरतानामयक्षिणी तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत्. ॐ हिमवत्युत्तरे पार्श्वे सुरतानामयक्षिणी तस्याः स्मरणमात्रेण विशल्या गर्भिणी भवेत्. ॐ